గణపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆనశృణ్వన్నోతిమిస్సీదసాదనం ప్రణో దేవే సరస్వతీ వాజేభిర్వాజినీవతే దీనామ విత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరి ఓం. ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతమతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూరఘోరా పాపకాశినీ తయానస్తను వాశంతమయా గిరిశం పాభిచాకశీ యామి శృంగిరిశం తహస్తే విభర్షస్తవే శివాం గిరిత్రతాం కురుమాహిగుం శ్రీ పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్చా వదామసి యతాను సర్వమిజ్జగత యక్ష్మగుం సుమనావసత్ అద్యవోచనది వక్తా ప్రథమో దైవ్యోభిషక్ అవీగశ్చ సర్వాన్ జంభయన్ సర్వాన్ సయాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత బభ్రుః సుమంగళః ఏ చేమాగుం రుద్రా అవితో దిక్షశ్రుతా సహస్రశో వైశాగుం ఏడహీమహే అసౌ యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమోస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అథో ఏ అస్య సత్వానోహం తేభ్యోకరన్నమః ప్రముంచదన్వనస్త్వముపయోరాత్మ్యోజ్యాం యాశ్చ తే హస్త ఇషవః పరాతా భగవో వప అవతత్యదనుస్వగుం సహస్రాశ్వశతేషు దే నిశీర్య శల్యాణాముఖా శివో నః సుమనాభవ విజ్యం దనుః కపర్దినో విశల్యో బాణవాగుం ఉతా అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః యాతే హేతిర్మీడుష్ట మహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా నమస్తే అస్త్వాయుధాయానాతతాయ ధృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథో య ఇషు దిత్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః స్వస్మింజరాయ త్విషీమతే పథీనాం పతయే నమో నమో బభ్లుషాయ వివ్యాధినే నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య ఏత్యై జగతాం పతయే నమో నమో రుద్రాయ తతావినేక్షేత్రాణాం పతయే నమో నమః సూతాయాహంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో మంత్రినే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే భక్తీనాం పతయే నమో నమ కృష్ణవీతాయ దావతే సత్వనాం పతయే నమః నమః సామానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః ప్రకుభాయ నిషంగిణే తేనానాం పతయే నమో నమో నిషంగిణ ఇషుధిమతే తస్కరానాం పతయే నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః శ్రీకావిభ్యో జిగాగుం సద్భ్యోముష్ణతాం పతయే నమో నమో శ్రీమద్భ్యో నక్తం చరభ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషినే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో దన్వావిభ్యశ్చ వో నమో నమ ఆతన్వానేభ్య ప్రతిదధా ేభ్యశ్చ వో నమో నమ ఆయచ్చద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్యశ్చ యానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ స్తిష్టద్భ్యో తావద్భ్యశ్చ వో నమో నమ సవాభ్యః సవాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగుంహతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపదిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రతిభ్యో రతేభ్యశ్చ వో నమో నమో రతేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహేతృభ్యశ్చ వో నమో నమ తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుగృద్భ్యో ధన్వగృద్భ్యశ్చ వో నమో నమో మృగయభ్యశ్వనిభ్యశ్చ వో నమో నమ స్వభ్యశ్వపతిభ్యశ్చ వో నమః नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेडुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृत्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च नमः सोऽभ्याय च प्रतिसर्व्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरोथिने च नमो विल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्धुभ्याय च हरण्याय च नमो कृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुदन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नेप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेध्याय च विद्युत्याय च नमः ऐद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वदाय च दूरे वदाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्तेत्याय च कोल्याय च नमः पार्व्याय च भार्व्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शश्व्याय च वेण्याय च नमः सिगत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च चयनाय च नमः कपर्दिने च पुलस्तरे च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमानाय च विक्रते च नमः आखिनदे च प्रखिनदे च नमो वक्रिकेभ्यो देवानागुंहृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः त्रापे अंधसस्पदे दरिद्रन्नीललोहिता येषां पुरुषाणां येषां पशूनां मा भेर्मा रोमो येषां किञ्च नाम मत या ते रुद्र शिवा तनो शिवा विश्वा भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुं रुद्राय तवसे कपर्दिने स्वयद्वीराय प्रमरामहे मतिम् यता नश्यमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोदनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चं जयोश्चमनुराय जे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकं मान उक्ष्यन्तमुतमान उक्षितम् मानो वदे पितरं मोत मातरं प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभावितो वधीर्हविष्मन्तो नमसा विधेमते आराते गोग्न उत पूरुषग्ने शयद्वीराय तुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयदा च न शर्म यच्च द्विवर्हा सुहिश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्तुमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतिर्विणक्तु परित्वेषस्य दुर्मतिरगायो अवत्ति रामगवद्यत्तनुष्वमीरुस्तोकायतनयाय मृडया मीरुश्चमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निदाय कृत्तिम् वसान आचर पिनाकम् विभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् वेदयोन्यमस्मन्निव पन्तुता सहस्राणि सहस्रदा बाहुवोत्सव एतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रादिभूम्या तेषागुम् सहस्रयोजने वदन्वानि तन्मसे अस्मिन्महत्यर्नवेन्त्वरिक्षे भवादे नीलग्रीवाशिति कण्ठा शर्वा अधः चमाचराः नीलग्रीवाशिति कण्ठा दिवगुम् रुद्रा उपश्रिता ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासकपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पताम् पतिरक्षय ऐलभृदाय व्युदः ये तीर्थानि प्रचरन्ति शृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्द्वरिक्षे ये दिव्ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रतिचेर्दशो दिचेर्दशो द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् दिष्मो यश्च नो द्वेष्टितम् भोजम् वेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनात् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्तु एते साश्रमयुतम् पाशा मृत्यो मर्त्यायान्तवे तान्यज्ञस्य मायया सर्वा नवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हियस्वशुसुधन्वायो विश्वस्य क्षयदिवेशजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे अस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति 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 ॐ अग्ना विष्णो सजोष सेवा वर्तन्तु वाङ्गिरः द्युण्णैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे शावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च महादेतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे पश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्य मे ज्ञातं च मे सोश्च मे प्रसोश्च मे शेरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपेदिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मेनं च मे शुच्य मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिगाश्च मे उद्गाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियंगवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वाश्च मे मृत्तिकाश्च मे गिलयश्च मे पर्वताश्च मे श्रीकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुं सुश्च मेन्द्रयामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवस्य मे वैश्वानरश्च मरुतग्रहाश्च मेतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णस्य मे पात्नी वदस्य मे हार्यो जनस्य मे इद्मस्य मे बर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे स्वजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवर्णे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतभृच्च माधवनीयश्च म आग्नेयेन्द्रम् च मे अविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचदाश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रुक्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्य मे दृत्यौहि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौहि च मे पष्ठवाच्य मे पष्ठौहि च म उक्षा च मे वशा च मरुषभश्च मे बेहश्च मे नड्वाञ्च मे धेनुश्च मायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् पानो यज्ञेन कल्पताम् ध्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे त्रिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे अष्टाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षट्त्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे अष्टाचत्वारिगुंसच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च शुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवरश्च भुवनश्चाधिपतिश्च ईरा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्था मदानि सगुंसि षद्विश्वे देवासूक्तवाच पृथिविमा धर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति। शांति शांति ओम दक्षयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहते एतावानस्य महिमा अतो जायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदयेत् पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषाः देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्धभिः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अवद्नम् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्त साद्यार्षयस्य ये तस्माद्यज्ञात् सर्वहुतः संभृतम् पृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहु कावोरोपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरो तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोऽसूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्ततात् पद्भ्याम् भूमिर्द्विषः श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वा विमदन्यदास्ते दाता पुरस्ताद्य मुदा जहार शक्र प्रविद्वान् प्रदिशस्य दस्रः तमेवं विद्वान् अमृत इह भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हराकम् महिमानस्य चन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्भूत पृथिव्यैरसाच्च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वान् अमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेश्च ते लक्ष्मीश्च पत्न्यौ अहो रात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणाम् सर्वम् मनिषाणाम् तच्छञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मविदाप्नोति परम् तदेशाभ्युक्ता सत्यम् ज्ञानमनन्तम् ब्रह्मा यो वेद निहितम् गुहाया परमे व्योमन् सोऽश्नुते सर्वान् कामान् सः ब्रह्मणा विपश्चितेति तस्माद्वा एतस्मादात्मन आकाश सम्भूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी पृथिव्या ओषधयः ओषधेभ्योऽन्नम् अन्नात् पुरुषः स वा एष पुरुषो नरसमयः तस्येदमेव शिरः अयम् दक्षिणपक्षः अयमुत्तरपक्षः अयमात्मा इदम् पुच्छम् प्रतिष्ठा तलप्लेशश्लोको भवति అన్నాద్వై ప్రజా ప్రజాయంతే యాగాశ్చ పృథివీ గుశ్రితా అథో అన్నే నైవ జీవంతే అథైనదమియంత్యంతతః అన్నగుం హి భూతానాం జ్యేష్ఠం తస్మాత్ సర్వౌషధముచ్యతే సర్వం వైతేన్నమాప్నువంతే ఏన్నం బ్రహ్మోపాసతే అన్నగుం హి భూతానాం జ్యేష్ఠం తస్మాత్ సర్వౌషధముచ్యతే అన్నాద్భూతాని జాయంతే జాతాన్యన్నేన వర్ధంతే అద్యదేతి చ భూతాని తస్మాదన్నం తదుచ్యత ఇతి తస్మాద్వా ఏతస్మాదన్నరసమయాత్ అన్యోంతర ఆత్మా ప్రాణమయః తేనైష పూర్ణః సవా ఏష పురుష విధ ఏవ తస్య పురుష విధతాం అన్వయం పురుష విధః తస్య ప్రాణ ఏవ శిరః వ్యానో దక్షిణ పక్షః అపాన ఉత్తర పక్షః ఆకాశ ఆత్మా పృథివీ పుచ్చం ప్రతిష్టా తదప్రేష శ్లోకో భవతి ప్రాణం దేవా అనుప్రాణంతే మనుష్యా పశవశ్చ యే ప్రాణో హి భూతానామాయుః తస్మాత్ సర్వాయుషముచ్యతే సర్వం ఏవ ఆయుర్యంతే ఏ ప్రాణం బ్రహ్మోపాసతే ప్రాణో హి భూతానామాయుః తస్మాత్ సర్వాయుషముచ్యత ఇతి తస్యైష ఏవ శారీర ఆత్మా యః పూర్వస్యా తస్మాద్వా ఏతస్మాత్ ప్రాణమయాత్ అన్యోంతర ఆత్మా మనోమయః తేనైష పూర్ణః సవా ఏష పురుష విధ ఏవ తస్య పురుష విధతాం అన్వయం పురుష విధః తస్య యజురేవ శిరః ఋగ్దక్షిణ పక్షః సామోత్తర పక్షః ఆదేశ ఆత్మా అథర్వాంగిరస పుచ్చం ప్రతిష్టా తలప్యేష శ్లోకో భవతి యతో వాచో నివర్తంతే అప్రాప్య మనసా సహ ఆనందం బ్రహ్మణో విద్వాన్ న బిభేది కదాచనేతి తస్యేష ఏవ శారీర ఆత్మా యః పూర్వస్యా తస్మాద్వా ఏతస్మాన్ మనోమయాత్ అన్యోంతర ఆత్మా విజ్ఞానమయః తేనైష పూర్ణః సవా ఏష పురుష విధ ఏవ తస్య పురుష విధతాం అన్వయం పురుష విధః తస్య శ్రద్ధైవ శిరః ఋతం దక్షిణ పక్షః సత్యముత్తర పక్షః యోగ ఆత్మా మహపుచ్చం ప్రతిష్టా తదప్రేష శ్లోకో భవతి విజ్ఞానం యజ్ఞం తనుతే కర్మాణి తనుతేపి చ విజ్ఞానం దేవా సర్వే బ్రహ్మజ్యేష్ఠముపాసతే విజ్ఞానం బ్రహ్మ చేద్వేద తస్మాచ్చేన ప్రమాద్యతే शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति तस्यैष एव शरीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माभिज्ञानमयात् अन्योऽन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविद एव तस्य पुरुषविदताम् अन्वयम् पुरुषविदः तस्य प्रियमेव शिरः मोदो दक्षिणपक्षः प्रमोद उत्तरपक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदप्लेशश्लोको भवति असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनम् ततो विदुरिति तस्येष एव शरीर आत्मा यः पूर्वस्य अथातोऽनु प्रश्नाः उता विद्वानमुम् लोकम् प्रेत्या कश्चन गच्छति आहो विद्वानमुम् लोकम् प्रेत्या कश्चन समश्नुता शोकामयता बहुस्याम् प्रजायेते सतपोतप्यता सतपस्तत्त्वा इदगुम् सर्वमसृजता यदिदम् किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चच्चाभवत् निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् च विज्ञानम् च सत्यम् चारुतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति असत्त्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानद्युस्वयमकुरुता तस्मात्तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसगृह्येवायम् लब्ध्वानन्दे भवति को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्द याते यदा ह्येवैष एतस्मिन्न दृश्येनाग्ने निरुक्ते निलयने भयम् प्रतिष्ठाम् विन्दते अतसो भयम् गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भयम् भवति तत्त्वेव भयम् विदुषो मन्वान स्यात् तदप्येष श्लोको भवति भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति स्वैषानन्दस्य मीमागुंसा भवति युवात्स्यात् साधु युवाध्यायकः आशिष्ठो दृढिष्ठो बलिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः ते ये शतम् मानुषा आनन्दाः स एको मनुष्यगन्धर्वानामानन्दः श्रोत्रियस्य चाकामः तस्य ते ये शतम् मनुष्यगन्धर्वानामानन्दाः स एको देवगन्धर्वानामानन्दः श्रोत्रियस्य च कामहतस्य तेये शतम् देवगन्धर्वाणामानन्दाः स एकपितृणाम् चिरलोकलोकानामानन्दः श्रोत्रियस्य च कामहतस्य तेये शतम् पितृणाम् चिरलोकलोकानामानन्दाः स एक आजानजानाम् देवानामानन्दः श्रोत्रियस्य च कामहतस्य तेये शतमाजानजानाम् देवानामानन्दाः स एक कर्म देवानाम् देवानामानन्दः ये कर्मणा देवानपि यन्ति श्रोत्रियस्य च कामहतस्य तेये शतम् कर्म देवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य च कामहतस्य तेये शतम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य च कामहतस्य तेये शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य च कामहतस्य तेये शतम् बृहस्पतेरानन्दाः स एक प्रजापतेरानन्दः श्रोत्रियस्य च कामहतस्य तेये शतम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य च कामहतस्य स यस्यायम् पुरुषे यश्चासावादित्ये स एकः स य एवम् वित् अस्माल्लोकान् प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रामति एतम् प्राणमयमात्मानमुपसङ्क्रामति एतम् मनोमयमात्मानमुपसङ्क्रामति एतम् विज्ञानमयमात्मानमुपसङ्क्रामति एतमानन्दमयमात्मानमुपसङ्क्रामति तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कुतश्च नेति एतगुम् हवामन तपति किमहगुम् साधुना करवम् किमहम् पापमकरवमिति स एवम् विद्वानेते आत्मानग्स्पृणते उभे ह्ये वैष एते आत्मानग्स्पृणते य एवम् वेद इत्युपनिषत् सहनाभवतु सहनो भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विव्राजते तद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितात् सन्न्यासयोगात्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृता परिमुच्यन्ति सर्वे दह्रम् विपापम् परमेश्वभूतम् यत्पुण्डलीकम् पुरमध्यसग्रस्तम् तत्रापि दह्नम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीलस्य यः परः स महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्तिः शान्तिः।